भवान् नारायणो देवः श्रीमान् चक्रायुधो विभुः एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव लोकानां त्वं परो धर्मः विश्वक्सेनः चतुर्भुजः शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः अजितः खड्गदृग्विष्णुः कृष्णश्चैव बृहद्बलः सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्यं क्षमादमः प्रभवश्चाप्ययश्च त्वम् उपेन्द्रो मधुसूदनः इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभोरणान्तकृत् शरण्यं शरणं च त्वम् आहुः दिव्या महर्षयः सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयं प्रभुः सिद्धानामपि साध्यानाम् आश्रयश्चासि पूर्वजः त्वं यज्ञस्त्वं वषट्कारः त्वमोङ्कारः परन्तपः प्रभवं निधनं वाते न विदुः को भवानिति दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च दिक्षु सर्वासु गगने पर्वतेषु वनेषु च सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् त्वं धारयसि भूतानि वसुधाञ्च सपर्वताम् अन्ते पृथिव्याः सलिले दृश्यचे त्वं महोरगः त्रीन्लोकान् धारयन् रामा देवगन्धर्वदानवान् अहं ते हृदयं रामा जिह्वादेवी सरस्वती देवागात्रेषु रोमाणि निर्मिता ब्रह्मणा प्रभो निमेषस्ते भवेद्रात्रिः उन्मेषस्ते भवेद्दिवा संस्कारस्ते भवन्वेदाः न तदस्ति त्वया विना जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरं सीतालक्ष्मीः भवान् विष्णुः देवः कृष्णः प्रजापतिः वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुं तदिदं नः कृतं कार्यं त्वया धर्मभृतां वरा निहतो रावणो रामा प्रहृष्टो दिवमाक्रमा अमोघं बलवीर्यन्ते अमोघस्ते पराक्रमः अमोघं दर्शनं रामा न च मोघस्तवस्तवः अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमं प्राप्नुवन्ति सदा कामान् इह लोके परत्र च इममार्षं स्तवं नित्यम् इतिहासं पुरातनं ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॐ तत्सदिति श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे ब्रह्मकृतरामस्तवो नाम विंशत्युत्तरशततमः सर्गः।